एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तुत्री रत्नावली शर्मा। नेकपा माओवादी केन्द्रस्य पदाधिकारिणाम् उपवेशेन प्रधानमन्त्रिणा त्यागपत्रम् सम्प्रति न देयमिति निर्णीतम् वर्तते। बालुवाटारवर्तिनी प्रधानमन्त्री निवासे ह्य उपविष्टेन माओवादी केन्द्रस्य पदाधिकारिणाम् आकस्मिकोपवेशेन प्रधानमन्त्रिणा पुष्पकमल दाहाल प्रचण्डेन त्यागपत्रम् अप्रदाय विश्वासस्य मतस्य कृते प्रयतनम् विधातुम् समीचीनम् भवतीति निर्णीतम् वर्तते। उपवेशस्य पश्चात् सचिव देवेन्द्र पौडेल प्रधानमन्त्रिणा त्यागपत्रम् न प्रदीयते, संविधानस्य अनुसारेण संसदि विश्वासस्य मतम् प्राप्तुम् प्रयतिष्यते इति अज्ञापयत्। प्रधानमन्त्रिणा त्यागपत्रस्य अप्रदानानन्तरम् एमाले दलस्य पक्षतः सर्वकारे सहभागिभिः मन्त्रिभिः त्यागपत्रम् प्रदाय सर्वकाराय प्रदत्तम् समर्थनम् प्रत्यावर्तनीयम् भवति। सत्ता सहकारिणा एमाले दलेन सर्वकाराय प्रदत्तम् समर्थनम् प्रत्यावर्तितम् सत् प्रधानमन्त्रिणा प्रचण्डेन मासाभ्यन्तरे संसदि विश्वासस्य मतम् पुनः ग्रहणीयमिति सांविधानिकी व्यवस्था वर्तते। नेकपा एमाले दलेन संसदि प्रतिनिधित्व कुर्वन्ति दलानि राष्ट्रिय सहमतेः सर्वकारे सहभागिनी भवितुम् आहूतानि वर्तन्ते। च्यासलवर्तिनी दलस्य कार्यालये ह्य उपविष्टेन सचिवालय उपवेशेन नेपाली कांग्रेस दलेन सह विहिताया सहमतेः अनुसारेण अध्यक्षस्य केपी शर्मा ओलिनः नेतृत्वस्य संघटयिष्यमाणे राष्ट्रिय सहमतेः सर्वकारे सहभागिनी भवितुम् संसदि प्रतिनिधित्वम् कुर्वन्ति दलानि आहूतानि सन्ति। एवमेव उपवेशेन संविधानस्य षट्सप्ततितम्यः धारायाः द्वितीयोपधारायाः अनुसारेण सहमतेः सर्वकारस्य संघटनाय अद्य यावत् मार्ग प्रशस्ति कर्तुम् प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्डः अनुरुद्धोऽस्ति। उपवेशेन नेपाली कांग्रेस दलस्य नेकपा एमाले दलस्य च मध्ये राष्ट्रिय सहमतेः सर्वकारस्य संघटनाय विहिता सहमतिः अभ्यर्थितास्तीति दलस्य सचिवः योगेश भट्टराई असूचयत्। नेपाली कांग्रेस दलेन राजनीतिक स्थायित्वस्य संविधाने आवश्यक संशोधनस्य च कृते एमाले दलस्य नेतृत्वे राष्ट्रिय सहमतेः सर्वकारस्य संघटनाय सहमतिर्धृतेति ज्ञापितम् वर्तते। नेकपा एमाले दलेन सह सहमते धरणस्य पश्चात् बुढानीलकण्ठवर्तिनी सभापतेः शेरबहादुर देउवाभिधस्य निवासे उपविष्टेन पदाधिकारिणाम् उपवेशेन संविधाने आवश्यक संशोधनाय अर्थतन्त्रे दृष्टानाम् समस्यानाम् समाधानाय लोकतन्त्रस्य रक्षायै च प्रमुखाणि दलानि समाविश्य राष्ट्रिय सहमतेः सर्वकारस्य संघटनाय निर्णीतमिति नेपाली कांग्रेस दलस्य प्रवक्ता डाक्टर प्रकाश शरण महत असूचयत्। एमाले दलाध्यक्षेण केपी शर्मा ओलिना नेपाली कांग्रेस दलस्य सभापतिना शेरबहादुर देउवाभिधेन च क्रमेण सर्वकारस्य नेतृत्वं विधास्यते, अन्येषां दलानामपि सहभागिता विधास्यते इति प्रवक्ता डाक्टर महत अज्ञापयत्। नेपाली कांग्रेस दलस्य केन्द्रीय कार्य सम्पादन समितेः उपवेश अद्यवसति। बुढा नीलकण्ठवर्तिनी सभापतेः देउवा निवासे प्रातः नववादने उपविश्यमाने उपवेशे पश्चात्तन राजनीतिक विकास क्रमस्य विषये विमर्शनम् विधीयते इति नेपाली कांग्रेस दलस्य मुख्य सचिवः कृष्ण प्रसाद पौडेलः अज्ञापयत्। राप्रपा नाम्ना राष्ट्रिय प्रजातन्त्र दलेन नेपाली कांग्रेस नेकपा एमाले दलयोर्मध्ये विहिता सहमतिः अनुकूलास्तीति प्रतिक्रिया व्यक्तास्ति। धुम्बाराही वर्तिनी दलस्य केन्द्रीय कार्यालय ह्य उपविष्टेन पदाधिकारिणाम् उपवेशेन पश्चात्तन विकसित राजनीतिक घटनाक्रमस्य समीक्षां विधाय कांग्रेस एमाले दलयोर्मध्ये सर्वकारस्य संघटनाय विहिता नूतन सहमतिः अनुकूलम् स्वागतयोग्या चास्तीति निश्चितमिति उपवेशस्य पश्चात् राप्रपा दलस्य अध्यक्षः राजेन्द्र लिङ्गदेन अवोचत्। राप्रपा दलेन दीर्घकालात् संविधान संशोधनस्य विषयः उत्थाप्यमानो वर्तते, एतदर्थं नूतन सहमतिं कृत्वा अग्रे वर्धनीयमिति दलस्य धारणा अस्तीति अध्यक्ष लिङ्गदेन अगदत्। अध्यक्ष लिङ्गदेन पश्चात्तन विकसित राजनीतिक घटनाक्रमस्य विषये राजनैतिक दलैस्सह नैरन्तर्येण विमृक्ष्यते इति अभाषत। एवमेव उपवेशेन विकसित घटनाक्रमस्य समीक्षां विधाय सम्प्रत्येव कमपि वस्तुगता धारणां निर्माय निष्कर्षं न प्राप्तुमपि निर्णीतं वर्तते। राजसोपा नाम्ना राष्ट्रिय स्वतन्त्र दलेन नेपाली कांग्रेस नेकपा एमाले दलयोः नेतृत्वस्य नूतन सत्ता गठबन्धने सहभागी न भवितुम् निर्णीतम् वर्तते। ह्य उपविष्टेन राजसोपा दलस्य सचिवालय उपवेशेन नूतन गठबन्धने सहभागी न भवितुम् निर्णीतम् इति दलस्य प्रमुख सचेतक पदीय सन्तोष परियार अज्ञापयत्। विपुल शक्तिद्वयस्य सर्वकारे विद्यमानता लोकतान्त्रिक संस्कारस्य विपरीतं भवतीति उक्त्वा प्रमुख सचेतक पदीय परियार अनेन गठबन्धनेन राजनीतिक स्थायित्वस्य प्रदानं भविष्यति त्यत्र दलं न विश्वसिति इति अज्ञापयत्। राष्ट्रपतेः रामचन्द्र पौडेलस्य प्रधानमन्त्रिणः पुष्पकमल दाहाल प्रचण्डस्य च मध्ये मेलवार्ता सम्भूता वर्तते। शीतल निवासवर्तिनी राष्ट्रपति कार्यालये ह्य सम्भूते मेलने प्रधानमन्त्री प्रचण्डः देशे विकसितस्य पश्चात्तन राजनीतिक घटनाक्रमस्य विषयं राष्ट्रपतिम् अबोधयत् इति राष्ट्रपतेः संचार विज्ञः किरण पोखरेलः असूचयत्। नेपाली कांग्रेस दलस्य सभापतेः शेरबहादुर देउवाभिदस्य नेकपा एकीकृत समाजवादी दलस्य अध्यक्षस्य माधव कुमार नेपालस्य च मध्ये मेलवार्ता सम्भूतास्ति। बुढा नीलकण्ठवर्तिनी देउवा निवासे सम्भूतायाम् अनयोर मेलवार्तायाम् पश्चात्तन राजनीतिक घटनाक्रमस्य विषये विमृष्टमिति एकीकृत समाजवादी दलस्य नेता आलोक राय माझी अज्ञापयत्। सभापतिः देउवा कांग्रेस एमाले दलयोर्मध्ये राष्ट्रिय सहमतेः सर्वकारस्य संघटनाय विहिताय सहमतेर्विषये अध्यक्षं नेपालं विज्ञाप्य तत्र सहभागी भवितुम् अनुरुणादिति नेता रायमाझी असूचयत्। मेलने अध्यक्ष नेपालः सभापतिना देउवाभिधेन प्रस्तुतस्य प्रस्तावस्य विषये दले विमृश्य एव निर्णेष्यते इत्युक्तमिति नेता रायमाझी असूचयत्। राष्ट्रपतिना रामचन्द्र पौडेलेन संघीय संसदः सदनद्वयात् पारितीकृत्य प्रमाणीकरणाय प्रस्तुतं सुरक्षण मुद्रण सम्बद्धं विधेयकं पारितीकृतमस्ति। राष्ट्रपतिना पौडेलेन नेपालस्य संविधानस्य अनुसारेण ह्य विधेयकमेतत् प्रमाणीकृतमिति राष्ट्रपतेः कार्यालयेन ज्ञापितं वर्तते। एवमेव राष्ट्रपति पौडेलः सुरेश अधिकारी प्रतिनिधिसभायाः सचिवपदे नियुक्तो वर्तते। राष्ट्रपतिः पौडेलः प्रतिनिधिसभायाः सभामुखस्य परामर्शेन नेपालस्य संविधानस्य अनुसारेण संखुवासभा जनपदस्य खाँदबारी नगरपालिकायाः द्वितीय ओडा क्षेत्रस्य अधिकारिणं प्रतिनिधिसभायाः सचिवपदे नियुक्तवान् इति राष्ट्रपतेः कार्यालयेन प्रकाशितायां विज्ञप्तौ उल्लिखितमस्ति। राष्ट्रिय सभायां निवेश सहजीकरण सम्बद्धान् कतिपयान् नेपालाधि नियमान् संशोधयितुं निर्णीतम् एतत् विक्रमवर्षीयं विधेयकमाधृत्य विचार्यताम् इत्युक्त्वा प्रस्तुतः प्रस्तावः सर्वसम्मत्या स्वीकृतो वर्तते। सभायाः ह्यस्तनोपवेशेन उद्योग वाणिज्यापूर्ति मन्त्रिणा दामोदर भण्डारिणा प्रस्तुतः प्रतिनिधिसभातः ससन्देशं प्राप्तं विधेयकमेतत् विचार्यतामिति प्रस्तावः सर्वसम्मत्या स्वीकृतो वर्तते। एवमेव राष्ट्रिय सभायाम् एतत् विक्रमवर्षीयस्य विनियोग योजन विधेयकस्य अन्तर्गतानि मन्त्रालयगत शीर्षकाणि आधृत्य विमृष्टमस्ति। विमर्शने सांसदः आयव्ययेन अविकसितानां क्षेत्राणां वर्गाणां च समस्यानां सम्बोधनं न विहितं केभ्यश्चित् क्षेत्रेभ्य एव प्राथमिकता दत्तेति चर्चयन्तः देशस्य सन्तुलितः विकासः न जात इति अभाषन्त। यस्तनोपवेशे संस्कृति पर्यटन नागरिक उड्डयन मन्त्रालयेन स्वास्थ्य जनसंख्या मन्त्रालयेन रक्षा मन्त्रालयेन परराष्ट्र मन्त्रालयेन ऊर्जा जलस्रोत सिंचन मन्त्रालयेन पेयजल मन्त्रालयेन अर्थ मन्त्रालयेन च सम्बद्धेष् विनियोजित शीर्षकेष् विमृष्टम् वर्तते। राष्ट्रिय सभायाः अपरोपवेशः अद्य दिवासपादैकवादने वसति। नेकपा एकीकृत समाजवादी दलस्य महाधिवेशने विभिन्न विषयाणां प्रतिवेदन चतुष्टयम् आधृत्य विमर्शनं प्रारब्धमस्ति। नेपाल प्रज्ञा प्रतिष्ठानस्य सभाभवने संचलति महाधिवेशने प्रतिनिधिनां धारणां ग्रहीतुं राजनीतिक प्रतिवेदने समाजवादी कार्यक्रमे विधान सम्बद्धे प्रतिवेदने सांगठनिक प्रतिवेदने च सामूहिकं विमर्शनं प्रारब्धं वर्तते।